श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः राजीवलोचन श्रीमान् राजेन्द्रो रघुपुङ्गवः
जानकी वल्लभो जैत्रो जिता मित्रो जनार्दनः विश्वामित्र प्रियो दान्तः शरणत्राण तत्परः
वालि प्रमदनो वाग्मी सत्यवाक् सत्यविक्रमः सत्यव्रतो व्रतधर सदानुमदाश्रितः
कौसलेयः खरध्वंसी विराधवध पण्डितः विभीषण परित्राता हरकोदण्डखण्डनः
सप्तताल प्रभेत्ता च दशग्रीव शिरोहरः जामदग्न्यमहोदत्पदळनः ताटकान्तकः
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् धूषण त्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः
अहल्या शापशमनः पितृभक्तो वरप्रदः जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः
ऋक्षवानरसङ्घाती चित्तकूटसमाश्रयः जयन्तत्राणभरद सुमित्रा पुत्रसेवितः
सर्वदेवाधिदेवश्च मृतवानरजीवनः मायामारी च हन्ता च महादेवो महाभुजः
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः महायोगी महोदारः सुग्रीवेक्षितराजतः
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः आदिपुरुषः परमपुरुषो महापुरुष एव च
पुण्योदयोदयासारः पुराणपुरुषोत्तमः स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः मायामानुषचारित्रो महादेवादिपूजितः
सेतुकृज्जितवादासिः सर्वतीर्थमयो हरिः श्यामाङ्गः सुन्दरः सूरः पीतवासाधनुद्धरः
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः विभीषण प्रतिष्ठाता सर्वावगुणवर्जितः
परमात्मा परं ब्रह्म सच्चिदानन्द विग्रहः परं ज्योति परं धाम पराकाश परात्परः
परेशः पारगः पारः सर्वदेवात्मकः परः
इति श्रीरामाष्टोत्तर शतनामस्तोत्रम् सम्पूर्णम्। Thank you.